ॐ सहनावतु सहनो भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ गुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनि सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र शत्रन्त पदानां परिचयः अपि अभ्यासः इति शत्रन्त रूपाणाम् अतः तत्र वयं तत्र पाठे ये विषयाः सन्ति तान् सर्वान् पठितवन्तः कृतवन्तः केवलं तत्र एकः भागः अवशिष्यते तत्र पुटसङ्ख्या अस्ति तत्र अष्टषष्टिः अधिकशततमे पुटे 168 तत्र श्लोकद्वयमस्ति तदनन्तरं सूक्तिः अस्ति यदि तद् पठामः तत्र पाठः पठितः भवति तदनन्तरं तत्र नूतनविषयः नाम शत्रन्तप्रत्ययः इति भवति अतः तत्र अद्य क्षम्यतां शानज् प्रत्ययस्य विषयः शानज् प्रत्ययस्य विषयः भवति शत्रप्रत्ययस्य समाप्तिः भवति अस्तु अस्तु तर्हि तत्र आरम्भं कुर्मः तर्हि शोभाभगिनी नमस्कारः
नमस्कारः महोदय
नमस्कारः भगिनी 168 भगिनि
आम् आम्
अस्तु तर्हि तत्र अस्तु तत्र नरेश् महोदय आरम्भं करोति वा तत्र श्लोकः गच्छन्
आं महोदय गच्छन् पिपीलिको याति योजनानां शतान्यपि अगच्छन् वैनतेयो अपि पदमेकं न गच्छति
अस्तु तर्हि तत्र मूलविषयः तत्र शत्रन्तरूपं कुत्र कुत्र अस्ति
गच्छन् अस्ति
अस्तु
अगच्छन् अस्ति
अगच्छन् अपि अस्ति अस्तु तत्र अगच्छन् इति शत्रन्तरूपम् अगच्छन् अपि शत्रन्तरूपं गच्छन् इति कस्य विशेषणं
गच्छति
सत्यं
गम् धातु
गम् धातु समीचीनम् अस्तु तर्हि किञ्चित् तत्र प्रथमवाक्यस्य किञ्चित् परिशीलनं करोतु तर्हि
गच्छन् पिपीलिका गच्छति याति योजनानां शतानि अपि
अपि समीचीनं शतानि अपि शतान्यपि समीचीनं तत्र गच्छन् पिपीलिको याति तत्र तर्हि क्रियापदम् अस्मिन् वाक्ये किम् अस्ति
याति
याति याति नाम
गच्छति
गच्छति एव समीचीनं अतः तत्र गच्छति पिपीलिकः पिपीलिको नाम पिपीलिकः स्त्रीलिङ्गे पिपीलिका इति पूर्वं वयं तत्र दृष्टवन्तः किन्तु अत्र पुल्लिङ्गरूपं पिपीलिकः पिपीलिका पिपीलिकः पिपीलिकः गच्छन् तत्र विशेषणं किं विशेषं किं
पिपीलिकः विशेष्यं गच्छन् विशेषणं
समीचीनम् अतः एव तत्र पुल्लिङ्ग एकवचनरूपम् अस्तु समीचीनम् इदानीं तत्र योजनानां शतान्यपि इति अस्ति तत्र
योजनानां षष्टिविभक्ति बहुवचनं
योजनानां तत्र योजनानाम् इति षष्टि अस्ति प्रथमाविभक्ति एकरूपं प्रथमाविभक्ति एकवचनरूपं किम् अस्ति
योजना
अर्थः कः तत्र
योजना किमपि कर्तुम् इच्छति चेत् किं योजना
चिन्तनं नास्ति अत्र तत् किञ्चित् भिन्नमस्ति. अन्य कोऽपि वदति वा तत्र योजना नाम किम्?
अहं वदामि वा महोदय?
हा हर्षतु भगिनि वदतु.
योजनम् इति मन्ये, योजनम् इत्युक्ते डिस्टेन्स्
दूरस्य मापनं
का एक
दूरस्य मापनं तत्र
नपुंसक अस्ति इति मन्ये.
स्त्रीलिङ्गे अस्ति, तत्र योजना इति अस्ति खलु.
योजना इति चिन्तनम् इति मन्ये खलु. योजना इति
महोदय मराठीभाषायां, मराठीभाषायां वयं योजने,
किन्तु संस्कृते संस्कृतभाषायां योजना इति अपि अस्ति. योजनं नाम वनं वने वनानि, तादृशपदमपि अस्ति. अत्र किमस्ति, स्त्रीलिङ्गपदं वा नपुंसकलिङ्गपदं वा?
परन्तु अत्र महोदय शतान्यपि इति उक्तमस्ति, शत संख्या अस्ति, तत्कारणेन योजनमिति डिस्टेन्स् एव अस्ति नपुंसकलिङ्गे न.
आं महोदय, योजनानां शतानि
इति शतानि,
किन्तु तत्र शतानि योजनानाम् इति षष्टि अस्ति, शतानि इति
समीचीनं. किन्तु
महोदय संस्कृत डिक्शनरि मध्ये दत्तम् अस्ति योजन इति शब्दः अस्ति नपुंसकलिङ्गे.
अपि योजना योजना स्त्रीलिङ्गे अपि अस्ति.
But that yojana is plan.
संस्कृते वदतु भगिनि.
योजना स्त्रीलिङ्गे अस्ति न महोदय, तत् योजना तु स्कीम् अथवा प्लान् इति अस्ति.
तत्र चिन्तनं
चिन्तनमस्ति. एतत्तु योजनम् एकक अस्ति,
कियत्
दूरेः मापनस्य एकक अस्ति,
कियत् दूरम् इति वदति,
कियत् दूरम्. आम् आम्.
अतः तत्र योजनम् इति समीचीनं. तर्हि नपुंसकलिङ्गपदं योजनम् अपि तत्र योजनानां शतानि इति
शतानि
इति समीचीनं.
महोदय एकवारम् अहम् उक्तवती खलु, मराठीभाषायां वयं बहवः संस्कृतशब्दाः तदेव उपयोजयामः. अहं वयं मराठीभाषायां योजना इत्युक्ते चिन्तनं, योजनम् इत्युक्ते एकक
अन्यभाषायामपि अस्ति
वा?
अहं
योजना न जानामि, अन्यभाषायामपि
अस्ति. तर्हि इदानीम् अग्रे सरामः. तर्हि योजनानां शतानि अपि तत्र वेदभगिनी, शतानि इति तत्र लिङ्ग् तत्र वचनं किम्?
शतानि अहं चिन्तयामि बहुवचनं, परन्तु अहं चिन्तयामि नपुंसकलिङ्गे शतं, शते, शतानि एव
इति समीचीनं. तथैव अस्ति भगिनि, शतानि योजनानां शतानि इति भवति. तत्र योजनानां शतानि इति अस्ति, समीचीनम्. अस्तु अग्रे,
तस्य वाक्यस्य अर्थं किं महोदय?
परिशीलयामः अग्रे अपि किञ्चित् किमस्ति इति पश्यामः, तदनन्तरं पुनः
आगच्छामः.
अस्तु अस्तु, तर्हि अग्रे तत्र भवती एव किञ्चित् अग्रे पठति वा?
आम् महोदय. अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति, पदम् एकं न गच्छति. अगच्छन् वैनतेयो अपि, वैनतेयः अपि, वैनतेयः
इत्युक्ते कः?
गरुडः.
विनुतायाः पुत्रः
वैनतेयः.
गरुडः पक्षिः, पक्षिः.
अगच्छन् वैनतेयः अपि पदम् एकं न गच्छति. अगच्छन् वैनतेयस्य विशेषणम् अगच्छन्. अस्तु,
तत्र अगच्छन् इत्युक्ते अर्थः कः?
अगच्छन् इत्युक्ते न गच्छन्ति.
न गच्छति
वैनतेयः न गच्छति.
न गच्छ सः न गच्छति न गच्छन् अस्ति
न गच्छन्
अस्ति
न गच्छन् अस्ति आम्
अतः तत्र मैनतेय अगच्छन् अपि पदमेकमपि न गच्छति
अर्थः न
समीचीनम् अस्तु इदानीं तत्र समीचीनम् इदानीम् अतः तत्र योजनानां शतान्यपि इति तत्र शतयोजनम् इति चिन्तयन्तु शतयोजनानि इति चिन्तयतु तर्हि तत्र प्रथमवाक्यस्य अर्थः कः तर्हि
गच्छन् पिपीलिकः
याति
गच्छति शतयोजनां शतानि अस्ति चेत् अपि
शतयोजनानि शतं
शतयोजनानि शतयोजनानि
अस्ति चेदपि इदानीं केवलं प्रथमवाक्यस्य अर्थः कः इति किञ्चित् वदतु
अस्तु गच्छन् पिपीलिकः याति योजनानां शतानि
न न तत्र शतयोजनानि इति चिन्त
शतयोजनानि अपि याति इति
अपि तत्र तत्र अपि किमर्थं अस्तु अपि अस्ति हा शतानि अपि अस्तु अपि अर्थः कः
किम् अर्थः कः न जानामि महोदय
अस्तु अस्तु तर्हि अन्य कोऽपि तत्र उषा भगिनी किञ्चित् वदति वा
आं महोदय यदि पिपीलः गच्छति तर्हि चिन्तनं न करोति शतं
चिन्तनम् इति विषयः अत्र नास्ति चिन्तनम् इति विषयः एतत् चिन्तनं करोति इति अत्र न दत्तम् पिपीलिकः गच्छन् याति योजनानां शतान्यपि नाम शतयोजनानि सः गच्छति
शतयोजनानि गच्छति इत्युक्ते 100 मैल्स् इट् गोस् इति अस्ति महोदय
तत्र कर्मपदं तत्र
कर्मपदं
शतानि इति किं किम् अस्ति तत्र शतम् अथवा शतयोजनानि किं भवति कर्मपदं खलु तर्हि
शतं
यदि तत्र शतं
शतं शते शतानि शतं शतमेव
शतानि इति अस्ति शतानि इति अस्ति नपुंसकलिङ्गपदं नपुंसकलिङ्गपदम् अस्तु एकनिमिष एतत् कुर्मः तर्हि तत्र योजनानां शतानि अपि इति प्रथमतया तत्र शतयोजनानि इति चिन्तयतु प्रथमतया तदनन्तरम् अत्र किमस्ति इति चिन्तयामः शतयोजनानि गच्छन् पिपीलिको याति शतयोजनानि इति चिन्तयतु तर्हि योजनानि इति अस्ति खलु तत्र वचनं किमस्ति बहुवचनम् अस्तु तर्हि अपि विभक्ति का
प्रथमविभक्ति
द्वितीया अपि
रूपं दृष्ट्वा प्रथमा द्वितीया सत्यं किन्तु वाक्ये अस्तु समीचीनम् अस्तु तर्हि विभक्ति अस्ति
द्वितीयबहुवचनं
समीचीनम् इदानीं कस्य क्रियापदस्य अथवा क्रियासूचकस्य कर्मपदं कस्य कर्मपदं कुत्र अन्वयः अस्ति
पिपीलिकः गच्छन्
तर्हि क्रियापदं क्रियासूचकं किम् अस्ति याति
पिपीलिकः गच्छन्
शतयोजनानि याति नाम शतयोजनानि गच्छति शतयोजनानि याति नाम गच्छति अतः पिपीलिका गच्छन् शतयोजनानि याति इति प्रथमवाक्यम् अस्तु तर्हि तत्र शतम् इति तत्र शतम् इति पदमस्ति सङ्ख्या खलु शतम् इति सङ्ख्या अस्ति तत्र सङ्ख्यायाः तत्र शैली द्वयमस्ति एकमस्ति तत्र यदि तत्र विंशतिः बालकाः इति वदामः तत्र बालकाः विंशतिः बालकाः विंशतिः इति सङ्ख्या अस्ति खलु तर्हि तत्र किन्तु यदि विंशतिः बालकाः इति वदामः तत्र बालकाः इति तत्र अपि विंशतिः बालकाः तत्र तयोः मध्ये पदयोः मध्ये कः सम्बन्धः विंशतिः बालकाः इति वदामः.
संख्या विषये विशेषणं वदति विशेषणम् अस्ति वा तत्र?
विशेषणम् अस्ति, विंशतिः बालकः. किन्तु यद्यपि विशेषणम् अस्ति किन्तु विंशतिः तस्य तत् किं तत्र लिङ्गपरिवर्तनं न भवति, सर्वदा विंशतिः इति एव स्त्रीलिङ्गरूपमेव स्वीकरोति खलु. यद्यपि बालकाः तत्र सन्ति अस्ति, तत्र शतं बालकाः नपुंसकलिङ्गपदमेव, नित्य तत्र लिङ्गपरिवर्तनं न भवति, तादृशम् अस्ति. तत्र विशेषणसङ्ख्या अपि अस्ति, विंशतिः बालकाः इति यदि वदामः तत्र विंशतिः इति संख्या अस्ति, विशेषणमपि अस्ति.
महोदय तत्र अपि शब्दस्य अर्थं किं किम् अस्ति?
किं किं किम्
अपि अपि
एकनिमिषं, प्रथमतया संख्या इति विषयः आसीत् खलु? तद् अवगच्छामः, तदनन्तरम् अपि किमर्थम् इति पश्यामः.
महोदय तत्र चत्वारि पर्यन्तमेव लिङ्ग अन्वयः खलु महोदय? तदनन्तरं
नाम तत्र सर्वत्र विशेषणमेव अस्ति किन्तु रूपपरिवर्तनं न भवति, लिङ्गं समानं तिष्ठति खलु.
पञ्चमी आरभ्य
तत्र अपि विंशति आरभ्य किम् अस्ति नित्य तत्र स्त्रीलिङ्गपदमस्ति, तत्र विंशतिः एकविंशतिः स्त्रीलिङ्गपदमस्ति तत्र. अतः तत्र किं भवति, विशेषणमपि अस्ति संख्या अपि अस्ति तत्र. किन्तु यदि वयं वदामः तत्र बालकानां विंशतिः इति वदामः, बालकानां विंशतिः यदि भवति तत्र तत्र भारतदेशे, यदि तत्र आपणम् अथवा विपणी गच्छति तत्र किं करोति, तत्र आम्रफलम् आम्रफलानां चत्वारि ददातु इति न वदामः वा? इस्का चार दे दो, उस्का पाञ्च दे दो वदामः खलु. तादृशं तत्र योजनानां बालकानां विंशतिः, तदपि संख्या अस्ति किन्तु तत्र केवलं नाम शुद्धसङ्ख्या अस्ति, तत्र विशेषणं नास्ति. बालकानां विंशति शुद्धसङ्ख्या अस्ति, विशेषणं नास्ति. बालकानाम् इति षष्टिविभक्ति, विंशतिः इति प्रथमविभक्ति, तत्र बालकानां विंशतिः, तत्र विशेषणं नास्ति, केवलं सङ्ख्या अस्ति, शुद्धसङ्ख्या अस्ति. अतत्र शैलीद्वयं वर्तते, विशेषणत्वेन अन्या अस्ति शुद्धसङ्ख्या. अत्र द्वितीया शैली स्वीकृता अस्ति, योजनानां शतानि इति, नाम अर्थः अस्ति शतयोजनानि. अतः तत्र प्रथमवाक्यस्य अर्थः तर्हि किं भवति, गच्छन् पिपीलिकाः शतयोजनानि गच्छति. इदानीं द्वितीयवाक्यस्य अर्थः कः तत्र? निवेदिता भगिनी किञ्चित् वदति वा? आगच्छन् इति
अगच्छति,
अगच्छन् वैनतेयोपि
पदमेकम् वैनतेयोपि पदमेकं न गच्छति.
अतः
वैनतेयः पदमेकं पदमेकं न गच्छति. न जाने वाला इस तरफ ना,
न गच्छन् नाम न गच्छति खलु, न गच्छति,
न चलने वाला, न गच्छन् वैनतेय एकं पदम् अपि न गच्छति.
एकं पदम् अपि न गच्छति नाम सः किञ्चित् दूरमपि न गच्छति खलु. इदानीं समीचीनम् अस्तु. इदानीं तर्हि इदानीं प्रथमवाक्यस्य अर्थः जातः, द्वितीयवाक्यस्य अर्थः जातः, इदानीं श्लोकस्य अर्थः कः? नाम शिक्षा का तत् तर्हि श्लोकः अस्ति तेन किम् अवगच्छामः श्लोकेन श्लोकस्य शिक्षा का तर्हि
अहं वदामि
प्रयत्नम् आवश्यकम् अस्ति वा
समीचीनं तद् तदेव अस्ति समीचीनं नाम पिपीलिकः पिपीलिका इति तस्य परिमाणं कीदृशं लघु अस्ति खलु पिपीलिका लघु पिपीलिकः लघु अस्ति वैनतेयः
बलवान्
कृते आम् बृहान् अस्ति
खलु
बृहान् अस्ति किन्तु पिपीलिकः प्रयत्नं करोति अतः सः प्रयत्नं करोति इति कृत्वा सः शतयोजनानि गन्तुं शक्नोति वैनतेयः यद्यपि बृहान् सुलभतया सः बहुदूरं गन्तुं शक्नोति किन्तु यदि प्रयत्नं न करोति सः यत्र अस्ति तत्र एव तिष्ठति तिष्ठति इति अर्थः
महोदय वक्तुं शक्नुमः महोदय यद्यपि सामर्थ्यम् अस्ति गरुडः सामर्थ्यं भवति
प्रयत्नः भवति गरुडः सामर्थ्यम् अस्ति इति न
गरुडः
सामर्थ्यम् अस्ति
परन्तु किमपि प्रयत्नं न भवति चेत्
तदेव सत्यं सत्यं तदेव अस्ति प्रयत्नं विना किमपि न साधितुं
न शक्यते
इति एव अस्ति सत्यं भगिनि साधनार्थं प्रयत्नम् आवश्यकम् इति शिक्षा श्लोकः समीचीनश्लोकः खलु
परन्तु महोदय गच्छन् अगच्छन् इति शब्दस्य उपयोगं तत्र किमर्थम् अस्ति
सत्रन्तरूपं नाम सः गच्छन् गच्छन् नाम तत्र प्रयत्नं कुर्वन् इति अर्थे नाम सः गच्छन् गच्छन् एव अस्ति याति नाम तावद्दूरं गतवान् अस्ति सः शतयोजनदूरं सः गन्तुं शक्नोति अगच्छन् नाम अत्रैव एकस्मिन्नेव स्थले एव एकस्मिन् स्थले एव तिष्ठन् सः कुत्रापि न गच्छति पदमेकम् एकं पदमपि तत्र तावद्दूरमपि सः अग्रे न गतवान् समीचीनं वा
आम् आम्
अस्तु अस्तु तर्हि इदानीं द्वितीयश्लोकः अस्ति तमपि पठामः तर्हि तत्र सुजाता भगिनी नमस्कारः
नमस्ते महोदय
नमस्कारः भगिनी 168 भगिनी अस्तु तत्र तर्हि द्वितीयश्लोकः पठति वा श्लोकं पठति वा
वेदानुद्धरते जगन्निवाहते भूगोळमुद्विभ्रते भूगोळमुद्विभ्रते दैत्यं धारयते बलिं चलयते क्षत्रक्षयं कुर्वते पौलस्त्यं जयते हलं कलहते कारुण्यमातन्वते मातन्वते म्लेच्छान् मूर्छयते दशाकृति कृते कृष्णाय तुभ्यं नमः
इति अस्ति समीचीनम् अस्तु तर्हि तत्र अस्तु समीचीनं भगिनि इदानीं तत्र तत्र कति क्रियापदानि सन्ति अस्मिन् श्लोके
दश हते उद्धरते वहते
निवहते अस्तु अतः तत्र अनेकानि क्रियापदानि इति चिन्तनं खलु किन्तु किन्तु एकं कुर्मः तत्र तत्र अन्तिम तत्र किमस्ति तत्र कृष्णाय
तुभ्यं नमः
तुभ्यं नमः तत्र किमर्थं कृष्णाय इति अस्ति चतुर्थीविभक्ति
चतुर्थीविभक्ति
नमः अस्ति
नमः अस्ति इति समीचीनं नमः अस्ति इति कृत्वा कृष्णाय तुभ्यं तुभ्यमपि तत्र चतुर्थी खलु तुभ्यं नमः इति अस्तु समीचीनं तर्हि अस्तु तत्र कृष्णाय तुभ्यं नमः त्वं कृष्णः तुभ्यं कृष्णाय नमः अस्तु तर्हि इदानीं तत्र शत्रुन्तरूपं कुत्र अस्ति अस्मिन् श्लोके उत्तमं भगिनि अतः तत्र उद्धरन् इति अस्ति तर्हि उद्धरति इति किमर्थं दत्तं
चतुर्थीविभक्ति
उद्धरन् इति शत्रुन्तरूपं तस्य चतुर्थी अस्ति उद्धरते अतः वेदान् उद्धरन् वेदान् कर्मपदम् उद्धरन्
तत् इत्युक्ते धातु नास्ति तत्र
तत् क्रियापदं नास्ति
सोरि क्रियापदं नास्ति
उद्धरते नाम उद्धरन् प्रातिपदिकम् उद्धरत् चतुर्थी अस्ति
उद्धरते
उद्धरते
महोदय अत्र दशविशेषणानि सन्ति खलु कृष्णस्य
इति अस्ति समीचीनं
विशेषणविशेषभावरूपेण चतुर्थी अस्ति सर्वत्र
समीचीनं तर्हि तत्र प्रथमवाक्ये किं किम् अस्ति इति वदतु तर्हि भगिनि हर्षदा भगिनि
उद्धरते वेदान् उद्धरते जगन् निवहते भूगोलम् उद्बिभ्रते
तर्हि प्रथमवचनरूपं वदतु तर्हि तत्र
वेदान् उद्धरन् कृष्णः जगन् निवहन् कृष्णः भूगोलम् उद्बिभ्रन् कृष्णः अहं न जानामि महोदय उद्बिभ्रन् किम्
तत्र उद्धरन् तत्र उपरि उपरि तत्र समुद्रे पतितं भूगोलं समुद्रे आसीत् खलु
वराहावतारस्य आमां दश अवताराणि सन्ति परन्तु जानामि महोदय
वराहावतारवेद वेदान् उद्धरति
तत्र अस्तु तत्र दशावतारस्य उल्लेखः तत्र अस्ति समीचीनम्
आमां महोदय परन्तु बिभ्रते धातु
भ्रूधातुः अस्ति
भ्रू अस्तु धन्यवादः
समीचीनम् अस्तु तर्हि अग्रे तत्र शोभगिनी द्वितीयवाक्ये तत्र किं किं विशेषणमस्ति
महोदय तर्हि तत्र दैत्यं वारयते बलिं चलयते क्षत्रक्षयं कुर्वते तत्र दैत्यं वारयन् किं महोदय दैत्यं धारयन् बलिं चलयन् क्षत्रक्षयं कुर्वन्
इति
तत्र तत्र अन्ते कृष्णाय भवति इति कृत्वा सर्वाणि पदानि
तादृशं
यतोहि अन्ते आं महोदय नमः इति आगच्छति तर्हि विशेषणानि भवन्ति सर्वाणि पदानि तत्र
समीचीनं
कृष्णाय
कृष्णाय
तादृशकृष्णाय तत्र धारयन् धारयति इत्युक्ते
नश्यति इति तत्र तर्हि तत्र दैत्यं धारयन् तत्र तुभ्यमपि अस्ति इति कृत्वा त्वं दैत्यं धारयन् अस्ति त्वं कृष्णः दैत्यं धारयन्
अस्ति बलिं चलयन् अस्ति
महाराज तादृशं तुभ्यं तादृशं न
तादृशं तुभ्यं नाम त्वं त्वं कृष्ण
त्वं तादृशं त्वं
तादृम् अस्ति अतः असि
असि
तादृशम् अस्ति
क्षत्रक्षयं कुर्वन् असि
असि
तादृशं त्वं नमः
अतः तुभ्यं नमः
तुभ्यं नमः इति
तुभ्यं नमः इति भवति
क्षम्यतां त्वं न भवति तादृशः तादृशं
त्वं तादृश कृष्णः असि
असि तुभ्यं नमः
कृष्णाय नमः
नमः इति
समीचीनम् अस्तु अग्रे नरेश महोदय तृतीयवाक्ये
पौलस्त्यं जयन् तस्य चतुर्थी विभक्ति जायते हलं कलयन् चतुर्थी विभक्ति कलायते कारुण्य मातन् न्वन् आतन्वन् आतन्वन् तस्य चतुर्थी तन्वते
आतन्वते समीचीनं कारुण्यम् आतन्वते तस्य चतुर्थी समीचीनम् अस्तु अग्रे तत्र उषा भगिनी अन्तिमवाक्ये तत्र किं किम् अस्ति
म्लेच्छां मूर्च्छयते दशाकृति कृते कृष्णाय तुभ्यं नमः दश आकृति
न न तत्र म्लेच्छां मूर्च्छयते तत्र प्रथमविभक्तिरूपं किम् अस्ति
म्लेच्छान् म्लेच्छान् कर्मपदम् अस्ति तत्र
हा म्लेच्छान् समीचीनं
म्लेच्छः अस्ति वा महोदय
म्लेच्छः पुल्लिङ्गपदम् अस्ति खलु
म्लेच्छः इत्युक्ते किम् अस्ति महोदय
म्लेच्छः इत्युक्ते लैक् डौन् ट्रोडन् पीपल् आर् लैक्
लो
औट्कास्ट् इति
यस्मिन् देशे वयं निवसामः सः देशः म्लेच्छदेशः इति वद इति उच्यते खलु
अस्ति वा म्लेच्छः म्लेच्छः फारिनर्स् करेक्ट् करेक्ट्
म्लेच्छदेशः मलम् इच्छन्ति
मूर्च्छयति
मूर्च्छयन् मूर्च्छयन् म्लेच्छान् मूर्च्छयन् त्वं कृष्णः म्लेच्छान् मूर्च्छयन् अपि नमः समीचीनम् अग्रे
दशा दशाकृति कृते इत्युक्ते दश आकृति कृते
हा तत्र किमस्ति प्रथमविभक्तिरूपं किमस्ति
कस्य महोदय
कस्य पदस्य विभक्ति का तर्हि
कृते दश दश
दशि कृते
दशाकृति कृत कृन्
सप्तमी विभक्ति वा
न प्रथम तत्तु चतुर्थी अस्ति दशाकृते कृति कृते
हा समीचीनं महोदय दशाकृति
कृतं न
दशाकृतीकृतं
कृष्णाय
तत्र कृत् इति भवति पापकृत् तादृशं तत्र दशाकृति कृतवान् दशाकृतिः तादृशरूपं धृतवान् कृतवान् यः अस्ति नाम दशविधरूपाणि यः कृतवान् अथवा तादृशम् अवतारं कृतवान् अतः तत्र प्रातिपदिकमस्ति दशाकृतिकृत्
महोदय
तत्र कृत् इति एव भगिनि तत्र मरुत् इव शब्दः इति मरुत् मरुतः अथवा तत्र किञ्चित् हा तादृशम् इति मन्ये भगिनि द्रष्टव्यम् अस्ति किन्तु दशाकृतिकृत् इति अतः तत्र तादृश तर्हि तत्र कृते इति चतुर्थी
शत्रन्तरूपं
वा शत्रन्तरूपं नास्ति तत्र भगिनि अन्यः प्रत्ययः कृत् इति तत्र केवलं तद् शत्रन्तरूपं नास्ति यतोहि तत्र दशविध आकृतिः यः कृतवान् अवतारं स्वीकृतवान्
तस्मै नमः
महोदय तत्र भवत् इति प्रातिपदिकस्य भवते इति भवति खलु चतुर्थी तत्र
तादृशमेव अस्ति किन्तु थ इति तकारान्तपदम् इति वक्तुम् इष्टवान् तावदेव किन्तु केवलं तकारान्तपदं नास्ति कृत् नाम किमपि कृत् कृत् इति अन्ते भवति नाम पापकृत् पुण्यकृत् इति तादृशपदानि सन्ति खलु अतः तत् कृत् इति हा कृत् इति अन्ते भवति तकारान्तपदं भवत् प्रायशः भवत् शब्दवत् नास्ति भगिनि यतोहि तत्र भवान् इति प्रथमविभक्त्यां भवति अत्र मरुत् इति
मरुत् अस्ति चेत् मरुते इति न भवति भवति वा इति
तदेव भवति
तत्र इत्युक्ते तत्र चतुर्थी एव इति उक्तवान् वा
चतुर्थी चतुर्थी एव किन्तु
अस्तु
शत्रन्तरूपं नास्ति शत्रन्तरूपं नास्ति तावदेव
आम् आम्
चतुर्थी एव अस्ति शत्रन्तरूपं नास्ति अन्यः प्रत्ययः नाम कृत् इति तत्र योजनं तस्य योजनं कृत्वा नूतनपदं यः दशाकृतिः कृतवान् सः इति दशाकृतिकृत् इति तादृशकृष्णाय नमः अस्तु वंशीसुधा भगिनी नमस्कारः पेज् 168 भगिनि
नमस्ते महोदय क्षम्यतां विलम्बः जातः
168 भगिनि अस्तु तर्हि अग्रे सरामः तर्हि समीचीनम् अतः श्लोकः श्लोके तत्र एकमेकं तत्र रूपं दृष्ट्वा तत्र अर्थः कः इति दृष्ट्वा तत्र स्पोकन् संस्कृत् मध्ये तत्र दशावतारस्य तत्र उल्लेखः कथं भवति इति सर्वं कर्तुं शक्नुवन्ति तर्हि अग्रे सरामः इदानीं तत्र सूक्तिः अस्ति
महोदय शब्दमञ्जरी पुस्तके शेषं मरुत् शब्दवत् एवं भास्वत् गतवत् सुन्वत् तन्वत् रुंषत् क्रीणत् अदत् बृहत् बृषत् प्रभुत्तयः इति दत्तमस्ति महोदय
किन्तु एतद् किञ्चित् भिन्नम् अस्ति भगिनि किन्तु तत्र चतुर्थी इति स्वीकुर्मः अस्माकं मूलविषयः अस्ति शत्रन्तरूपं किञ्चित् उक्तम् अग्रे सरामः अस्तु तर्हि अग्रे तर्हि तत्र तत्र वंशीसुधभगिनी पठितुं शक्नोति वा
आं महोदय
अस्तु तर्हि पेज् 168 सूक्तिः अस्ति पठतु
अपतन् अपन्तानं तु गच्छन्तं सोदरोऽपि सः उदरपि विमुच्यति अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति अपन्थानम् इत्युक्ते यद्यपि मार्गे पन्था इत्युक्ते मार्गः अस्ति अपन्थानम् इत्युक्ते मार्गः नास्ति अपि गच्छन्तम् इत्युक्ते तत्र गच्छन्तं अपन्थानम् इति विशेषणविशेषभावः अस्ति सोदरोपि सः सः उदरपि तत्र सोदरोपि इत्युक्ते तत्र भ्राता भवति वा
समीचीनं
सः उदरः यतोहि उदरः
सः उदरेण जातं
हा समान अस्तु समीचीनम्
अतः सोदरः
किमुञ्चति इत्युक्ते तत्र को अर्थः तत्र
त्यजति
उत्तमं भगिनि हा हा समीचीनं तथैव अस्ति तर्हि आहत्य अपन्तानं नाम पन्तानम् इत्युक्ते
मार्गः इति न महोदय नास्ति वा
हा मार्गः समीचीनं
मार्गभ्रष्टः वा
समीचीनं सत्यं भगिनि
दुर्मार्ग
यः दुर्मार्गे
गच्छति
सः सोदरो
अपि
उदरः एव भवेत् किन्तु त्यक्तव्यः
विभीषण अपि रावण अस्ति वा महोदय
उत्तम उदाहरणमस्ति भगिनि तथैव अस्ति तथैव अस्ति भगिनि समीचीनं अतः अपन्तानं तु गच्छन्तं सोदरो अपि
विमुच्यन्ति
तं विमुञ्चति तं विमुञ्चति सः तं त्यजति गच्छन्तम् अपन्तानं त्यजति
द्वितीयविभक्ति अस्ति
हा द्वितीयविभक्ति अस्ति सत्यं तादृशम् अस्ति चेत् सोदर भवेत् किन्तु त्यजति त्यक्तव्यः तादृशः इति अस्ति तर्हि समीचीनम् अग्रे सरामः अतः तत्र अद्य तत्र शत्रन्त शत्रुप्रत्ययस्य पाठः कृतः अस्ति इदानीम् अग्रे सरामः इदानीम् अग्रे अस्ति शानच् प्रत्ययान्तानां प्रयोगः इदानीं तत्र एतावत् तत्र शत्रुप्रत्ययस्य विषयः आसीत् तत्र शत्रुप्रत्ययस्य शत्रुप्रत्यय तत्र केन धातुना तत्र योजनं कर्तुं शक्नुमः केवलं परस्मैपदी धातु धातूनां कृते एव तत्र योजनं भवति शत्रुप्रत्ययस्य नाम पठति पठन् अस्ति गच्छति गच्छन् अस्ति इति अतः तत्र एतावत् किं कृतवन्तः वयं बालकः पठति बालकः पठन् अस्ति बालकः गच्छति बालकः गच्छन् अस्ति इति एतादृशः प्रयोगाः अस्माभिः दृष्टाः इदानीम् अग्रे वयं तत्र तादृशप्रयोगाः कर्तुम् इच्छामः किन्तु यत्र धातुः परस्मैपदी धातुः नास्ति किन्तु आत्मनेपदी धातुः अस्ति तत्र रूपं किञ्चित् भिन्नं भवति किन्तु समानरीत्या प्रयोगः भवति नाम उदाहरणार्थं तत्र पेज् 170 पश्यामः 170 सप्ततिः अधिकशततमे पुटे तर्हि तत्र हा सुजाता भगिनी तत्र एतानि वाक्यानि सावधानं परिशीलित इति अस्ति खलु तत्र प्रथमवाक्यं पठतु तर्हि तत्र चन्द्रः
चन्द्रः शोभमानः अस्ति
हा चन्द्रः शोभमानः अस्ति इत्युक्ते चन्द्रः शोभते तत्र यथा तत्र वयं किं कृतवन्तः बालकः पठति इति स्थाने वयं किम् उक्तवन्तः शत्रुन्तरूपस्य उपयोगेन सुजाता भगिनी कीदृशवाक्यं
बालकः पठन् अस्ति
पठन् अस्ति बालकः पठन् अस्ति बालकः पठति चन्द्रः शोभते तत्र रूपं किम् अभवत् तत्र चन्द्रः शोभते इति स्थाने शोभमानः अस्ति यथा पठति स्थाने पठन् अस्ति अत्र शोभते स्थाने शोभमानः अस्ति शिशुः अग्रिमं तत्र शिशुः इति अस्ति वाक्यं
शिशुः वर्धमानः अस्ति वर्धते इति
शिशुः वर्धते युवा मोदमानः अस्ति
मोदते
युवा मोदते इति भवति समीचीनं अपि इदानीं तत्र अस्तु इदानीं तत्र समीचीनं भगिनि अस्तु अग्रे तत्र वेदा भगिनी तत्र चन्द्रः शोभमानः अस्ति इति तत्र नाम चन्द्रः शोभते इति इदानीं तत्र चन्द्राः शोभन्ते इति तस्य रूपं कीदृशं भवेत् तत्र बालकः पठति बालकः पठन् अस्ति किन्तु बालकाः पठन्ति तत्र किं कृतवन्तः बालकाः
बालकाः पठन्तः
पठन्तः इति वयं कृतवन्तः स्थापितवन्तः अत्र किमस्ति चन्द्रः शोभमानः अस्ति चन्द्रः शोभते चन्द्राः शोभन्ते इति कथं भवति चन्द्राः
शोभ मानः
तस्य बहुवचनं
शोभमानः शोभमानः
अत्र सुलभमस्ति यतोहि अकारान्तपदमस्ति देवशब्दवत् अतः चन्द्राः शोभमानाः
सन्ति
सन्ति चन्द्रः शोभमानाः सन्ति तथैव तत्र शिशुः वर्धमानः अस्ति
शिशवः वर्धमानाः सन्ति न शिशु
समीचीनं शिशवः शिशवः वर्धमानाः सन्ति इति समीचीनं हा अस्तु समीचीनं भगिनि अस्तु अग्रे हर्षदा भगिनि इदानीं तत्र लता इति वाक्यम् अस्ति तत्र एकवारं पठतु
लता कम्पमाना अस्ति
हा नाम क्रियापदं योजयतु तत्र लता
कम्पते
लता कम्पते कम्पते हा इदानीं तत्र लताः कम्पन्ते इति वाक्यं तस्य एतादृशरूपं वदतु तर्हि
लताः कम्पमानाः सन्ति
हा यतोहि कम्पमाना इति आकारान्तपदं लता शब्दवत् अतः लताः कम्पमानाः सन्ति समीचीनम् अग्रे एषा
एषा लज्जमाना अस्ति
एषा
बहुवचनं करणीयो
अपि तत्र एकवारं क्रियापदरूपं
एषा एषा लज्जते
एषा लज्जते समीचीनं हा एषा लज्जते बहुवचनरूपं
एताः लज्जन्ते
एताः लज्जन्ते हा इदानीं तत्र शानजन्तरूपं वदतु इदानीम्
एताः लज्जमानाः सन्ति
हा इति भवति समीचीनम् एताः लज्जमानाः सन्ति पूजा इति तत्र पूजा
पूजा प्रवर्तमाना अस्ति पूजा प्रवर्तते पूजाः प्रवर्तन्ते पूजाः प्रवर्तमानाः सन्ति
इति भवति समीचीनं हा अस्तु
महोदय शानश्रूपाः सोरि शानश्रूपाणि विभक्तिकृते सुलभानि सन्ति
हा सत्यं भगिनि सत्यं
अकारान्त 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 नपुंसक
इति एव अतः अतः सुलभमस्ति हा अतः हा शत्रन्तरूपं किञ्चित् क्लिष्टमस्ति हा सत्यम् अस्तु समीचीनम् अस्तु अग्रे तत्र
धन्यवादः
हा अस्तु अग्रे तत्र नरेश महोदय इदानीं तत्र निद्रा
निद्रा बाधमाना अस्ति निद्रा बाधते
निद्रा बाधते निद्रा बाधमाना अस्ति तत्र केवलम् अभ्यासार्थं तत्र बहुवचनरूपं वदामः
निद्राः बाधन्ते निद्राः बाधमानाः सन्ति
सन्ति समीचीनम् अस्तु अग्रे
नक्षत्रं नक्षत्रं प्रकाशमानम् अस्ति नक्षत्रं प्रकाशते नक्षत्राणि प्रकाशन्ते नक्षत्राणि प्रकाशमानानि सन्ति
हा इति भवति समीचीनं समीचीनम् अस्तु अग्रे तत्र निवेदिता भगिनी अन्तिमं तत्र मित्रं
मित्रं स्पर्धमानम् अस्ति मित्रं स्पर्धते
बहुवचनं
मित्राणि स्पर्धन्ते मित्राणि स्पर्धन्ते मित्राणि स्पर्धमानानि सन्ति
हा इति भवति समीचीनं भगिनि अस्तु अग्रे किं यत् दत्तमस्ति तदपि एकवारं पठतु एतेषु
एतेषु वाक्येषु स्थूलाक्षरैः मुद्रितानि शानच् प्रत्ययान्तानि रूपाणि सन्ति आत्मनेपदीनां धातूनां वर्तमानकालार्थे शानच् प्रत्ययः भवति परस्मैपदीधातूनां शत्रुप्रत्ययः भवति इति पूर्वतने पाठे वयं ज्ञातवन्तः एव शानजन्तानां प्रयोगः अपि विशेषणरूपेण भवति अतः एतेषाम् अपि रूपाणि त्रिषु लिङ्गेषु भवन्ति
हा इति अतः अतः कः नाम यथा शत्रुप्रत्ययं प्रत्ययस्य योजनेन विशेषणं प्राप्तवन्तः तथैव अत्रापि शानच् प्रत्ययस्य योजनेन विशेषणं कर्तृपदस्य विशेषणं प्राप्नुमः खलु तत्र चन्द्रः शोभमानः अस्ति चन्द्रः शोभते चन्द्रः इति कर्तृपदं खलु निवेदित भगिनि
आम् आम्
हा चन्द्रः शोभते चन्द्रः कर्तृपदं चन्द्रः शोभमानः अस्ति शोभमानः विशेषणम् अस्ति चन्द्रपदस्य हा एषा लज्जमाना अस्ति लज्जमाना अस्ति विशेषणं कस्य पदस्य
एषा
एषा इति पदस्य विशेषणम् अस्ति कर्तृपदस्य विशेषणम् अतः तत्र त्रिषु लिङ्गेषु रूपाणि तत्र भवन्ति पुल्लिङ्गे तत्र उदाहरणं दत्तमस्ति अधोभागे प्रवर्तमानः प्रवर्तमान इति तस्य एकवारं तदपि
प्रवर्तमान प्रवर्तमानः कार्यक्रमः पुल्लिङ्गं प्रवर्तमाना सभा स्त्रीलिङ्गं प्रवर्तमानं सत्रं नपुंसकलिङ्गं पुल्लिङ्गं देव इव स्त्रीलिङ्गं माला इव तथा नपुंसकलिङ्गं फलम् इव
सत्यं हा इति समीचीनं तावदेव अस्ति उत्तमम् अस्तु तर्हि तत्र रूपं कथं भवति इति दृष्टवन्तः तर्हि तत्र यदि तत्र साधारण तत्र क्रियापदं तत्र आत्मनेपदी धातु अस्ति चेत् सुलभतया एतत् सर्वं वयं कर्तुं शक्नुमः अस्तु तर्हि इदानीं तत्र अग्रे तत्र कथां पठामः तर्हि तत्र प्रयोगः कथं भवति इति अपि ज्ञास्यामः तर्हि तत्र एकनिमेषः हा अस्तु अस्तु तर्हि तत्र कथा साक्षात् 169 पुटे अस्ति तम् एकवारं पठामः तर्हि तर्हि तत्र शोभभगिनी आरम्भं करोति वा
आं महोदय तत्र शीर्षिका अस्ति श्रद्धानाः मत्परमाः इति तत्र श्रद्धानाः इति
तत्र श्रद्धदानाः खलु
ओ श्रद्धदधानाः वा अस्तु महोदय तस्य दकारः भूत्वा श्रद्धदधानाः श्रद्धा इति पदं भवति श्रत् मत्परमाः शानच् प्रत्ययान्तानां प्रयोगः एतां लोककथाम् उच्चैः पठत एकदा सपरिवारः श्रीकृष्णः द्वारकातः वृन्दावनं गतः तत्र कदाचित् एकस्मिन् निकुञ्जे श्रीकृष्णः शयानः आसीत् कृष्णस्य दर्शनाय यतमानाः सर्वेपि गोपकाः कृष्णपत्न्यः परिजनाः च तम् अलभमानाः तस्य अदर्शनेन व्यथमानाः आसन् कुत्रापि विविधदेवताः प्रार्थयमानाः चिन्ताक्रान्ताः च अभवन्
समीचीनम् अस्तु अग्रे तत्र वंशीसुधा भगिनी अग्रे
आम् महोदय देवर्षिः नारदः अपि श्रीकृष्णं दिदृक्षमाणः तत्र आगतः श्रीकृष्णः कुत्रापि न दृश्यमाणः अस्ति इति ज्ञात्वा सः स्वयं तस्य अन्वेषणम् आरभमाणः निकुञ्जेषु प्रविष्टः सुन्दरैः वृक्षलता सरिद् गिरिभिः शोभमानेषु अपि वृन्दावननिकुञ्जेषु सः मोदमानः न अभवत् अन्ते कुत्रचित् निकुञ्जे सिध्यमानं कृष्णम् अपश्यत्
समीचीनं धन्यवादः भगिनी अस्तु अग्रे उषा भगिनी अग्रे
आं महोदय झटिति नारदः कम्पमानः तस्य समीपम् अगच्छत् कृष्णः ज्वरेण वेपमानः शिरोवेदनया पीडयमानः च पीड्यमानः च आसीत् कारणं जिज्ञासमानः नारदः कृष्णम् अपृच्छत् वेदानाम् असहमानः कृष्णः आहाकारं कुर्वाणः एव उत्तरं दत्तवान् तत् श्रुत्वा नारदः स्वप्रभावेण धन्वन्तरीम् अश्विनौ च तत्र समाहूतवान् तेषाम् उपचारेणापि कृष्णस्य शिरोवेदना वर्धमाना एव अभवत् धन्वन्तर्यादयः लज्जमानाः ततः निर्गताः
समीचीनं भगिनि अस्तु अग्रे तत्र वेदा भगिनी अग्रे
महोदय एतदन्तरे अन्तरिक्षात् भक्तानां चरणधूलिः एव भगवतः शिरोबाधयाः स्मर्यमाणम् औषधम् इति अशरीरवाक् श्रुता परं व्यथमानः नारदः तस्याम् आकाशवाण्यां श्रद्धदानः नाभवत् भगवतः रोगशान्तिं कामयमानः सः अन्यान्यप्रयत्नान् कुर्वाणः आसीत् अन्ते चरणधूल्यर्थं चरणधूल्यर्थं तद् दातॄणां भक्तानाम् अन्वेषणाय भक्तानामन्वेषणाय प्रयतमानः सः कृष्णपत्नीनां गोपकानां च समीपं गत्वा अपृच्छत् परन्तु चरणधूलिदानं पापाय कल्पते इति मन्वानाः ते नारदस्य वचनेषु अश्रद्धदानाः अवर्तन्त
हा समीचीनं भगिनि धन्यवादः हा तावत् पर्यन्तम् अस्तु अग्रे तत्र सुजाता भगिनी अग्रे
आं महोदय अन्ते
न ततः द्वितीयवाक्यम् अधोभागात्
ततः चरणधूलिं प्रार्थयमानः नारदः गोपिका अपृच्छत् तेन उच्यमानं वचनं पूर्णं अश्रुत्वा एव तां गोपिकाः ताः गोपिकाः दुःखम् असहमानाः अवर्तन्त कथमपि कृष्णस्य पीडानिवृत्तिम् अभिलषमाणाः ताः चरणधूल्या एव पीडावारणं मन्यमानाः तदर्थं स्पर्धमानाः अभवन्
अग्रे
नारदम् अनुवर्तमानाः ताः शयानस्य कृष्णस्य निकुञ्जम् आगताः ताः स्वां चरणधूलिं कृष्णस्य शिरसि लेपयितुं स्वरमाणाः अभवन् तासां भक्तिपारवस्यं वीक्षमाणः कृष्णः स्मयमानः श्रद्धानाः मत्परमां भक्तां भवत्यः
मत्परमाः
भक्ताः भवत्यः मे
अतीव प्रियाः प्रियाः इति अवदत् कृष्णस्य वचनं श्रुत्वा गोपिकाः मोदमानाः नारदादयः लज्जमानाः च अभवन्
समीचीनं तत्र गोपिका तत्र गोपिकायाः प्रशंसा खलु गोपिकानां समीचीनम् अस्तु तर्हि तत्र तत्र कथायाः अर्थः किञ्चित् मनसि स्थापितः अस्ति वा
औरेकवारं पठनीयम्
अस्तु 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 तत् आरम्भतः पठामः तर्हि अस्तु तर्हि तत्र नरेश महोदय आरम्भं करोति वा तत्र
आं महोदय एकदा सपरिवार श्रीकृष्णः द्वारकातः वृन्दावनं गतः
अतः कः
एकदिवसे श्रीकृष्णः द्वारकातः वृन्दावनं गतः सपरिवारः परिवारसहित
सपरिवारः सपरिवार नाम परिवारेण सह श्रीकृष्णः तत्र सपरिवारः इति विशेषणं भवति कीदृशः कृष्णः सपरिवारः कृष्णः एकाकी नास्ति तत्र परिवारेण सह स्थितः सः सः कुतः गतवान्
द्वारकातः
द्वारकानगरात् सः कुत्र गतवान्
वृन्दावनं
वृन्दावनं गतः इति तप्रत्ययः किन्तु घं गत्यर्थकधातूनां तत्र कर्मणि अर्थे अपि अस्ति कर्मणि अर्थे अपि भवितुम् अर्हति तत्र अहं बहुवारम् उक्तवान् तत्र तत्र रामः ग्रन्थं पठति रामेण पठितः ग्रन्थः तत्र तप्रत्ययः पठितः किन्तु कर्मं सूचयति कर्मपदं सूचयति यतोहि ग्रन्थः कर्मपदम् अस्ति ग्रन्थं पठति रामः ग्रन्थं पठति रामेण पठितः ग्रन्थः तत्र तप्रत्ययस्य भूतकालार्थक अस्ति अपि कर्मपदं साधारणतया सूचयति कर्मार्थे अस्ति किन्तु गतः इति अपि तत्र घं धातु तादृश अर्थः धातु अस्ति चेत् कर्तृर्थे अपि भवितुम् अर्हति अत्र गतः नाम गतवान्
भूतकाले
भूतकाले अतः श्रीकृष्णः द्वारकानगरात् वृन्दावनं गतवान् परिवारेण सह समीचीनम् अग्रे
तत्र कदाचित् एकस्मिन् निकुञ्जे श्रीकृष्णः शयानः आसीत् तत्र श्रीकृष्णः एकस्मिन् निकुञ्जे तत्र सः शयनं कृतवान् शयानः आसीत्
शयानः आसीत् शयानः अस्ति इति स्वीकरोतु शयानः अस्ति तत्र एकस्मिन् निकुञ्जे श्रीकृष्णः शयानः अस्ति इदानीं तत्र शयानः अस्ति कुत्र अस्ति शयानः
निकुञ्जे
कः श्रीकृष्णः किन्तु शयानः अस्ति इत्युक्ते किं
शयते
समीचीनं महोदय तत्र शयानः इति शानज् प्रत्यन्तपदमस्ति तत्र क्रियापदमस्ति शेते श्रीकृष्णः शेते इति अर्थः श्रीकृष्ण यथा तत्र बालकः वर्धते बालकः वर्धमानः अस्ति तादृश तत्र श्रीकृष्णः शेते श्रीकृष्णः शयानः अस्ति अथवा इदानीं शयानः आसीत् अतः तत्र अर्थः अस्ति श्रीकृष्णः तत्र
निकुञ्जे
तत्र उद्यानम् अपि नास्ति तत्र उद्यानं तत्र तादृशम् अस्ति भगिनि, तत्र यत्र वृक्षाः सन्ति अधोभागे तत्र
कुत्रचित्
किं भगिनि
बुश्
केवलं बुश् इति नास्ति, तत्र लता अपि भवितुम् अर्हति, किन्तु तत्र केवलं लता अस्ति चेत् तत्र एकस्मिन् निकुञ्जे सः शेते इति दत्तमस्ति, तत्र लता अपि भवितुम् अर्हति किन्तु तत्र उद्यानवनं तादृशम् इति चिन्तयतु, तत्र एकः भागः अग्रे तत्र दत्तमस्ति, तत्र अनेकेषु निकुञ्जेषु सः अन्वेषणं करोति इति
वृक्षलता सरि
हा तत्र हा तत्र वृन्दावननिकुञ्जेषु तत्र निकुञ्जः इति तत्र उद्यानम् इति चिन्तयतु, यत्र यत्र वृक्षाः सन्ति लताः सन्ति तादृशम् अस्तु शेते हा इदानीं तत्र तत्र अवगन्तव्यमस्ति नाम तत्र एतावत् वयं किं दृष्टवन्तः वर्धमानः शोभमानः प्रवर्तमानः लज्जमानः बाधमानः स्पर्धमानः, किन्तु अत्र मानः नास्ति, अत्र शयानः इति अस्ति, अतः नूतनरूपम् अस्ति, अग्रिमे सप्ताहे वयं पश्यामः तत्र कदा तत्र मानः इति भवति अपि कदा मानः इति न भवति, तत्र एकं करपत्रम् अस्ति, सम्यक् करपत्रम् अस्ति, तेन आधारेण तत्र वयं ज्ञातुं शक्नुमः तत्र कदा मानः तत्र मुगागमः इति वदामः, मुगागमः कदा भवति अपि मुगागमः कदा न भवति इति अग्रिमसप्ताहे करपत्ररूपेण तत्र परिशीलनं कुर्मः, किन्तु शयानः इति शत्र शानजन्तरूपम् अस्तु अग्रे महोदय
कृष्णस्य दर्शनाय यत् मानाः अपि गोपकाः कृष्णपत्न्यः परिजनाश्च तम् अलभमानाः तस्य अदर्शनेन व्यथमानाः आसन्।
हा दीर्घवाक्यमस्ति, हा अतः तत्र आसन् इति अस्ति, साक्षात् आसन् अस्ति, तर्हि कर्तृपदं किम् अस्ति
यतमानाः गोपकाः,
हा सर्वेपि गोपकाः केवलं
कृष्णपत्न्यः
अपि कृष्णपत्न्यः अपि
परिजनाः अपि
परिजनाः आसन्
आसन्
गोपकाः कृष्णपत्न्यः परिजनाः च आसन् ते सर्वे आसन्, ते किं किं कृतवन्तः इति इदानीं पश्यामः, किन्तु ते सर्वे आसन् तत्र अस्तु, तत्र सर्वे सर्वे अपि गोपकाः कृष्णपत्न्यः परिजनाः च आसन्, तत्र सर्वे प्राक् अस्ति यतमानाः, यतमानः तर्हि तत्र सर्वे यतमानाः आसन् इति चिन्तयतु वाक्यं नरेश महोदय, सर्वे यतमानाः आसन् तर्हि तत्र साक्षात् यथा तत्र चन्द्रः वर्धमानः अस्ति तादृशं वाक्यम् अस्ति खलु, सर्वे
यतमानाः यतन्ते,
हा तत्र इति चिन्तयामः तत्र वर्तमानकाले अस्ति इति चिन्तयामः, समीचीनं तत्र सर्वे यतमानाः सन्ति सर्वे यतन्ते, समीचीनं हा सर्वे यतन्ते इति अस्ति, किं कर्तुं यतन्ते सर्वे
दर्शनाय
प्रयत्नं कुर्वन्ति खलु
प्राप्तुं कृष्णस्य दर्शनाय यतन्ते,
हा सर्वे अपि कृष्णस्य दर्शनाय दर्शनार्थं दर्शनं प्राप्तुं सर्वे अपि यतन्ते, के सर्वे गोपकाः
गोपकाः कृष्णपत्न्यः परिजनाः
च यतन्ते, अतः तत्र ते यतन्ते, इदानीं तत्र एतावत् वयं किं स्मृतवन्तः तत्र शक्रन्तप्रत्ययस्य विषये, बालकः पठन् अस्ति नाम बालकः पठति, किन्तु साधारणतया तादृशप्रयोगः प्रयोगं न कुर्मः. वयं कीदृशं प्रयोगं कुर्मः? बालकः पठति, बालकः गच्छति, बालकः पठन् गच्छति इति तादृशं कुर्मः खलु. नाम तत्र क्रिया अनेके क्रियाः,
द्वे क्रिया.
हा, अतः तादृशम् अत्र अपि अस्ति. नाम यतमानाः सन्ति, ते यतमानाः सन्ति, तस्मिन् समये ते किं कुर्वन्ति? तत्र अन्यदपि कुर्वन्ति. तं
लभमानाः,
तत्र तम् इत्युक्ते कम्?
गोपकाः, कृष्णपत्न्यः, परिजनाः.
किन्तु
कृष्णं,
तम् अलभमानाः. इदानीं तत्र पुनः तत्र लघुवाक्यं कुर्मः. सर्वे अलभमानाः सन्ति. अलभमानाः सन्ति, अर्थः कः? सर्वे
लभनं शक्नुमः.
न न, तत्र तत्र भूतकालं मास्तु. तत्र तत्र लट् लकारे एव वदतु. तत्र सर्वे अलभमानाः सन्ति. सर्वे
लभन्ते,
अलभन्ते, अलभन्ते. तत्र अलभन्ते इति तत् आकारः साक्षात् क्रियापदे नास्ति. आ इत्युक्ते न इति अर्थे खलु, भूतकालार्थकः नास्ति अकारः.
लभन्ते,
अलभन्ते, न लभन्ते. तं न लभन्ते. कं न लभन्ते?
कृष्णं न लभन्ते.
अतः यतमानाः सन्ति किन्तु कृष्णं न
लभन्ते.
सर्वे अपि यतमानाः, गोपकाः, कृष्णपत्न्यः, परिजनाः च कृष्णं न
लभन्ते.
महोदय, कृष्णं
न लभन्ते, कृष्णं न लभन्ते. हा, वदतु भगिनि.
न, तं कृष्णं कृष्णं न लभते.
न लभन्ते, न
लभन्ते,
न लभन्ते.
गोपकाः, कृष्णपत्न्यः, परिजनाः. ओके,
ते सर्वं सर्वे तं कृष्णं न लभन्ते.
सत्यं.
न लभन्ते इति स्थाने अलभन्ते, पुनः अलभन्ते इति स्थाने अलभमानाः सन्ति. इदानीं भूतकाल इति कृत्वा आसन्. इदानीं केवलं तद् न, अन्यदपि कुर्वन्ति ते.
अदर्शनेन व्यथमानाः आसन्.
हा, पुनः सर्वे व्यथमानाः आसन्, नाम सर्वे व्यतन्ते खलु. सर्वे
व्यथते, व्यथन्ते,
व्यतन्ते, बहुवचने सर्वे व्यतन्ते. सर्वे व्यतमानाः सन्ति, सर्वे व्यतन्ते. केन व्यतन्ते?
अदर्शनेन.
कस्य अदर्शनेन?
कृष्ण अदर्शनेन,
कृष्णस्य अदर्शनेन
व्यथन्ते
अथवा व्यतमानाः सन्ति आसन्. अतः तत्र इदानीं तत्र अनेकाः क्रियाः सन्ति इति कृत्वा तत्र सर्वत्र शानजन्तरूपं स्वीकृतमस्ति. गच्छन्, पठन्, यथा तत्र श्लोके आसीत् खलु, वेदानुद्धरन्, जगन्निवहन्, उद्भिभ्रं, बिभ्रन्, धारयन्, चलयन् इति तादृशम् अत्रापि कृष्ण अत्रापि तत्र यतमानाः जनाः सन्ति, अलभमानाः सन्ति, गतमानाः अपि सन्ति. तत्र दर्शनाय यतमानाः सन्ति, कृष्णम् अलभमानाः सन्ति, कृष्णस्य अदर्शनेन व्यतमानाः सन्ति. अग्रे
कुत्रापि विविधदेवताः प्रार्थयमानः चिन्ताक्रान्तः च अभवन्. तत्र देवताः अपि चिन्ताक्रान्ताः अभवन्, प्रार्थयमानाः अभवन्.
हा, नाम प्रार्थयमानाः
प्रार्थयन्ते,
प्रार्थयन्ते, प्रार्थयन्ते अपि तत्र चिन्ताक्रान्ताः च अभवन्. नाम अभवन् इति तत्र अभवन् इति स्थाने आसन् इति वक्तुं शक्नुमः वा? तत्र
आम् अभवन् आसन् अपि
तत्र अभवन् इति स्थाने आसन् इति अस्ति इति स्थाने भवति इति स्थापितुं शक्नुमः, किन्तु सूक्ष्मभेदः वर्तते खलु, अस्ति अपि भवति तयोः मध्ये कः भेदः?
अस्ति तु भवति, किमपि परिवर्तनं भवति
नाम अत्र किमस्ति, देवताः पूर्वं चिन्ताक्रान्तः न आसन्, इदानीं चिन्ताक्रान्तः अभवन्, अतः तत्र अभवन् इति एव समीचीनं भवति तत्र। अतः प्रार्थयमानः प्रार्थयन्ते, विविधदेवताः प्रार्थयमानाः सन् अभव सन्ति, ते चिन्ताक्रान्ताः अभवन् इति अस्ति। समीचीनं, कोऽपि प्रश्नः एतावत्? तत्र हर्षिता भगिनी तत्र स्वशब्दैः किञ्चित् वदति वा तत्र अस्मिन् परिच्छेदे किम् उक्तमस्ति इति?
हा वदामि महोदय, प्रयत्नं करोमि। एकदा सपरिवारः श्रीकृष्ण वृन्दावनं गतः, तत्र एकस्मिन् निकुञ्जे, निकुञ्जे इत्युक्ते लघु उपवने, तत्र लताः सन्ति, श्रीकृष्णः शयानः शेते स्म, शेते स्म चलति वा महोदय? शयानः आसीत्
तत्र लङ्लकारः अस्ति अशेत इति खलु भगिनि, शेते अशेत,
यदि अहं शेते स्म
न न शेते चलति वा तत्र, तत्र अहं निवसामि स्म इति नाम तत्र एक एकदा इति नास्ति खलु, स्म इति यदि स्थापयामः तत्र एकवारम् इति न, तत्र वारं वारं तत् अभवत् इति अर्थः, अतः तत्र, अतः तत्र भूतकालार्थकं नाम तत्र अशेत इति प्रायशः समीचीनम्।
अस्तु अस्तु, अहं चिन्तितवती
निद्रां निद्रां कुर्वन् आसीत्,
किञ्चित्
नाम निद्रां कुर्वन् आसीत् इति अथवा निद्रां कृतवान् आसीत् तद् भिन्नमस्ति, निद्रां कृतवान् आसीत् इति एकमस्ति, निद्राति स्म इति भिन्नमस्ति, नाम तत्र
भ्रमं
तत्र एकवारं तत्र अहं दिल्लीनगरं गच्छामि स्म, अपि अहं दिल्लीनगरं गतवान्, भेदः कः?
गतवान् इत्युक्ते तत् क्रिया पूर्णम् अभवत्,
नाम अहं दिल्लीनगरं गतवान्, कतिवारं न जानामि, एकवारं प्रायशः अहं गतवान् अस्मि तावदेव, बहुवारम् अपि भवितुमर्हति, किन्तु अहं दिल्लीनगरं गच्छामि स्म इत्युक्ते तस्मिन् वर्षे, तत्र बाल्यकाले तस्मिन् वर्षे अहं दिल्लीनगरं गच्छामि स्म इत्युक्ते अहं वारं 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 तत्र दिल्लीनगरं
गच्छामि,
तत्र कण्टिन्यूस् इति वदन्ति तत्र, अतः तत्र स्म इति मास्तु अत्र।
अस्तु अस्तु, तत्र एकस्मिन् निकुञ्जे श्रीकृष्णः शयानः अस्ति, श्रीकृष्णः
अशेत
अशेत, कृष्णस्य पत्न्यः कृष्णपत्न्यः गोपकाः कृष्णस्य कृष्णस्य परिजनाः सर्वेपि कृष्णस्य दर्शनं यतन्ते,
कर्तुं दर्शनाय दर्शनं कर्तुम् इच्छन्ति, प्रयत्नं कुर्वन्ति, यतन्ते, समीचीनं।
परन्तु ते कृष्णस्य दर्शनं अलभन्ते, अतः व्यथन्ते,
समीचीनं।
विविधदेवताः अपि चिन्ताक्रान्ताः अभवन्, ते प्रार्थयन्ते च.
हा समीचीनं समीचीनं भगिनि, तथैव अस्ति. अतः तत्र देवताः अपि तत्र प्रार्थयन्ते, तत्र चिन्ताक्रान्तः अपि सन्ति, तत्र किं तत्र कुत्रापि कृष्ण श्रीकृष्णः न दृश्यते इति इति चिन्तनेन चिन्ताक्रान्ताः चिन्तामग्नाः च अभवन् देवताः. समीचीनं भगिनि, तथैव अस्ति. अस्तु अग्रे तत्र
पठामि वा? अग्रे पठामि,
अग्रे पठतु, अग्रे वदतु भगिनि तर्हि. हा,
देवर्षिः नारदः अपि श्रीकृष्णं दिदृक्षमाणः तत्र आगतः. श्रीकृष्णः कुत्रापि न दृश्यमाणः अस्ति इति ज्ञात्वा सः स्वयं तस्य अन्वेषणम् आरभमाणः निकुञ्जेषु प्रविष्टः. सुन्दरैः वृक्षलतासरिद्गिरिभिः शोभमानेषु अपि वृन्दावननिकुञ्जेषु सः मोदमानः न अभवत्. अन्ते कुत्रचित् निकुञ्जे खिद्यमानं कृष्णम् अपश्यत्.
हा इति अस्तु. तर्हि तत्र वाक्यद्वयं स्वीकृत्य किञ्चित् विवृणोतु. प्रविष्टः इति तावत्पर्यन्तं.
देवर्षि नारदः अपि श्रीकृष्णं दिदृक्षमाणः, अत्र दिदृक्षमाणः दिदृक्षते इति सन्नन्तरूपस्य शानच् अस्ति वा महोदय?
सत्यं भगिनि, द्रष्टुम् इच्छति,
द्रष्टुम् इच्छु, द्रष्टुम् इच्छु नारदः. श्रीकृष्णं द्रष्टुम् इच्छु नारदः तत्र आगतः.
हा, तत्र नारदः श्रीकृष्णं द्रष्टुम् आगतः, पुनः प्रत्ययः आगतवान्, तत्र आगतवान् दिदृक्षमाणः, दिदृक्षते दिदृक्षमाणः इति भवति. समीचीनं,
दिदृक्ष दिदृक्षु द्रष्टुम् इच्छु नारदः. श्रीकृष्णं द्रष्टुम् इच्छु दिदृक्षु नारदः तत्र
तत्र आगतवान् इति साक्षात् नामपदम्, किन्तु क्रियापदं तत्र दिदृक्षते,
दिदृक्षते. आम् आम्,
समीचीनं भगिनि. तत्र मुमुक्षु यथा मुमुक्षु तथैव दिदृक्षुः. समीचीनं भगिनि,
समीचीनं. मुमुक्षु तथैव न,
तथैव इच्छा. समीचीनं, अग्रे.
श्रीकृष्णः कुत्रापि न दृश्यमाणः अस्ति इति ज्ञात्वा सः स्वयं तस्य अन्वेषणम् आरभमाणः निकुञ्जेषु प्रविष्टः. श्रीकृष्णः कुत्रापि न दृश्यते इति सः ज्ञातवान्. अतः सः
समीचीनम्,
अतः सः स्वयं
दृश्यमाणः अस्ति इति नाम श्रीकृष्णः कुत्रापि न दृश्यते इति ज्ञात्वा, समीचीनम् इति ज्ञात्वा,
इति सः ज्ञातवान्. अतः सः स्वयं श्रीकृष्णस्य अन्वेषणम् आरभते. अन्वेषणस्य कृते सः निकुञ्जेषु प्रविष्टः, निकुञ्जेषु प्रविष्टवान् इति.
पुनः तत्र प्रविशति, पुनः तत्र गम् अर्थ गत्यर्थकधातुः एव खलु,
गत्यर्थकधातुः.
अतः तत्र कर्त्रर्थे प्रविष्टः, प्रविष्टवान् इति. नारदः प्रविष्टवान्, सः एव स्वयम् अन्वेषणार्थं तत्र निकुञ्जं प्रविष्टवान्, निकुञ्जेषु प्रविष्टः अस्ति नारदः. समीचीनम्, अस्तु अग्रे. तत्र एतावत् तत्र कः अथवा का का न पठितवती तत्र भवती तत्र अस्तु तत्र अस्तु तर्हि तत्र अशोभा भगिनी किञ्चित् वदति वा तत्र सुन्दरैः इति आरभ्य.
आं महोदय, सुन्दरैः वृक्षलता सरिद् गिरिभिः, सुन्दरैः वृक्षलता सरिद्गिरिभिः शोभामानेषु अपि वृन्दावननिकुञ्जेषु सः मोदमानः न अभवत्. अन्ते कुत्रचित् निकुञ्जे खिद्यमानं कृष्णम् अपश्यत्. अस्तु, अधुना नारदः तत्र निकुञ्जे प्रविशति अथवा तत्र प्रविशति इति अप्राविशत् क्षम्यतां प्राविशत् इति भवति भूतकाले अतः तत्र तत्र यतोहि वृक्षैः लताभिः सरिद्भिः गिरिभिः च तत् प्रदेशं सुन्दरम् अस्ति चेदपि सः मुदितः न अभवत् अभवत् न
अस्तु भगिनि सः मोदमानः न अभवत् समीचीनं
मोदमानः न अभवत् तत्र हा ओ तत्र क्रियापदम् ओदनीयं खलु महोदय मोदमानः इत्युक्ते मुद् मोदते न मोदते सः न मोदते
सः न मोदते
न मोदते
किन्तु अत्र अभवत् इति अर्थे नाम तत्र पूर्वं सः न मोदते इदानीं नाम तत्र सः सन्तुष्टः नासीत् पूर्वं यतो हि श्रीकृष्णं इदानीं तत्र यदि प्राप्तवान् तदा सः मुद्यमानः मोदमानः भवेत् किन्तु न प्राप्तवान् इति कृत्वा सः मोदमानः
न अभवत् अपि च तत्र शोभमानेषु
तत्र
शोभमानेषु इति अस्ति
तत्र पदस्य अन्वयः कुत्र भवति
शोभमानेषु निकुञ्जेषु इति अन्वयः भवति वृन्दावननिकुञ्जेषु इति तत्र किं विशेष तत्र शोभमानेषु इति विशेषणम् अपि च निकुञ्जेषु इति विशेष्यम् अस्ति
इति समीचीनं
तत्र शोभमानेषु इत्यस्य शोभन्ते इति क्रियापदं भवति किन्तु तत्र तथा न भवति
तत्र निकुञ्जः शोभते
निकुञ्जः शोभते
लिङ्गपदम् इति मन्ये निकुञ्जः शोभते
आं महोदय
निकुञ्जाः शोभन्ते
शोभन्ते इति भवति
अतः शोभमानाः निकुञ्जाः शोभमानाः सन्ति
सन्ति
तेषु शोभमानेषु निकुञ्जेषु भवति इदानीं तत्र समीचीनम् इदानीं तत्र सुन्दरैः इति तत् किमस्ति
सुन्दरैः इति अपि तत्र विशेषणम् एव यस्य इत्युक्ते वृक्षलता सरित् गिरिभिः इति अस्ति इत्युक्ते तत्र विशेष्यं कीदृशी तत्र कीदृशी इत्यस्य नदीभिः कीदृशीभिः कीदृशीभिः इत्युक्ते अस्ति इति इति प्रश्नस्य कृते सुन्दरैः इति भवति
तत्र सुन्दरः कः अस्ति तत्र
सुन्दरः तत्र पदसमुदायः अस्ति तत्र वृक्षाः लताः
सरितः सन्ति वृक्षाः सुन्दराः सन्ति
गिरयः अपि
सुन्दरी अस्ति
गिरिः सुन्दरः अस्ति
तत्र तत्र मिलित्वा सुन्दरैः नाम सुन्दराः सन्ति नाम वृक्षलता सरिद्गिरिभिः इति यदस्ति तत्र तस्य प्रथमविभक्तिरूपं किमस्ति
वृक्षलता सरित् गिरिः इति एव अस्ति तत्र
गिरयः इति प्रायः
गिरयः ओ तत्र भिः इति बहुवचने खलु गिरयः इति तत्र
समुदायः
समुदायः
गिरयः
गिरयः
तत्र अन्तिमपदं तत्र पुल्लिङ्गे अस्ति इति कृत्वा तस्य विशेषणं समुदायस्य समूहस्य
पुल्लिङ्गे भवति सुन्दरः सुन्दरैः
सुन्दरैः
सुन्दरैः इति भवति
समीचीनम् अतः तादृशसुन्दराः वृक्षलता सरिद्गिरयः तत्र सन्ति इदानीं किमर्थं तृतीय
किमर्थं तत्र यतोहि सः दृश्यमाणः श्रीकृष्णः कुत्रापि न दृश्यते
अत्र अत्र किमर्थं तृतीया गिरिभिः इति
ओ तृतीया इति उक्तवान् अस्तु तृतीया तत्र इत्युक्ते तत्र कर्मणि प्रयोगः अस्ति क्षणं महोदय. सुन्दरैः वृक्षलतासरित् गिरिभिः शोभमानेषु शोभमानेषु अपि
नाम
सः मोदमानः. अस्तु,
मोदमानः इति न आगच्छति अत्र. शोभते तत्र,
शोभते शोभते
तत्र
सत्यं
देवी शोभते, देवी विग्रहः शोभते इति यदि वाक्यं शृण्मश्चेत् तत्र प्रश्नः उदेति केन अथवा कया शोभते,
कया शोभते इति. सत्यं,
मालया देवी विग्रह मालया शोभते खलु.
आम् आम्,
हा नाम शोभते इति तत्र केन कारणेन शोभते इति अतः तत्र अपि शोभमानः नाम शोभन्ते इति अस्ति खलु, निकुञ्जाः शोभन्ते. केन शोभन्ते, कैः शोभन्ते, अतः
तत्र
सुन्दरैः वृक्षलतासरिद्गिरिभिः शोभन्ते
वृन्दावन निकुञ्ज निकुञ्जाः वृक्षलतासरिद्गिरिभिः शोभन्ते इति.
सुन्दरैः तादृशसुन्दरैः गिरिभिः सर्वं शोभन्ते
शोभन्ते
तादृशेषु निकुञ्जेषु अपि सः मोदमानः
न अभवत्
अभवत्. अन्ते श्रीकृष्णं कुत्रचित् निकुञ्जे खिद्यमानं
खिद्यमानं कृष्णम् अपश्यत्.
कृष्णः
अन्ते खिद्यमानम् इति खिद् इति धातुः, खिद्यते एकवचने खिद्यते इति भवति.
तादृशं कृष्णम् अपश्यत्,
तादृशं कृष्णं तत्र पुनः विशेषविशेषणं खिद्यमानं कृष्णम् अपश्यत्
नारदः.
नारदः
तत्र कृष्णम् अपश्यत्, समीचीनं.
धन्यवादः महोदय.
अस्तु, बहु किमपि कृतवन्तः वयम् अद्य, समीचीनमस्ति. शानच् प्रत्ययस्य परिचयः अपि अभवत् अद्य, समीचीनमस्ति. अस्तु, तर्हि अन्ते तत्र वंशीश्वरा भगिनी अन्ते प्रार्थनां वदति वा भगिनि, शान्तिमन्त्रं.
महोदय, तत् छत्रन्तचतुर्थी विभक्ति रूपाणि आसीत् न श्लोके, ते बहु समीचीनम्.
अस्तु भगिनि, अस्तु भगिनि. यदि किमपि प्राप्नोति चेत् तत्र वाट्साप् मध्ये प्रेषयतु भगिनि. वदन्तु, वदतु भगिनि.
ॐ शन्नो मित्रश्चं वरुणः, शन्नो भवत्वर्यमा, शन्न इन्द्रो बृहस्पतिः, शन्नो विष्णुरुक्रमः, नमो ब्रह्मणे, नमस्ते वायो, त्वमेव प्रत्यक्षम्, त्वमेव प्रत्यक्षम् महोदय,
त्वमेव प्रत्यक्षं ब्रह्म,
त्वमेवं प्रत्यक्षं ब्रह्म, त्वमेव प्रत्यक्षं विस्मृतवती महोदय. अस्तु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः, हरिः ॐ. ॐ गुरुभ्यो नमः. धन्यवादः महोदय.
धन्यवादः.
धन्यवादः.